इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। राष्ट्रपती पदासीना द्रौपदी मुर्मुः अफ्रीकी देशानां त्रयाणाम् अन्तर्गतं मलावी देशस्य यात्रायाः द्वितीये दिवसे अद्य मलावी गणराज्यस्य राष्ट्रपतिना लाजरस चक्वेरा इत्यमुना साकं द्विपक्षीयोपवेशनानि विधास्यति। अद्यैव विभिन्नेषु प्रसंगेषु प्रतिनिधिमण्डलस्तरीयानि उपवेशनान्यपि विधास्यन्ति। राष्ट्रपतिः राष्ट्रिय युद्धस्मारकं समाधिस्थलं प्रत्यपि गमिष्यति। अत्रावधौ राष्ट्रपतिः ह्यः सायं एकस्मिन् सामुदायिक कार्यक्रमे भारतीय प्रवासिभिः साकं संवादं कृतवती। प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् राष्ट्रिय जनतान्त्रिक संयुतिः राष्ट्रप्रगतिं समेधितुं निर्धन वंचित वर्गाणि च सशक्तं निर्मातुं प्रतिबद्धा अस्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना ह्यः चण्डीगढनगरे राष्ट्रिय जनतान्त्रिक संयुतेः एनडीए इत्येतस्य मुख्यमन्त्रिणां तेषां प्रतिनिधीनाञ्च सम्मेलनस्य अध्यक्षता कृता। भाजपादलीयः अध्यक्षः जेपी नड्डाः, रक्षामन्त्री राजनाथसिंहः, गृहमन्त्री अमितशाहः च अस्यां सभायां भागम् अगृह्णन्। इयं सभा राष्ट्रियविकासविषयेषु केन्द्रिता आसीत्। अस्मिन् संविधान का अमृत महोत्सवस्य इत्येतस्य आचरणस्य विषये अपि चर्चाः समनुष्ठिताः। एतस्यां सभायाम् उपस्थितः उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी इत्येषः प्रसारमाध्यमेन सह वार्तालापं कुर्वन् उक्तवान् यत् अस्मिन् अवसरे विकसित भारतस्य संकल्पं साधयितुं विभिन्नेषु विषयेषु प्रधानमन्त्रिणः मार्गदर्शनं प्राप्तवन्तः इति। झारखण्ड विधानसभा निर्वाचनस्य प्रथमचरणीय मतदानाय अधिसूचना अद्य प्रसारयिष्यते। अस्मिन् चरणे त्रिचत्वारिंशत् नैर्वाचनिक क्षेत्रेषु मतदानानि भविष्यन्ति। नामांकनपत्राणि अस्य मासस्य पञ्चविंशति दिनांकं यावत् पूरयितुं शक्यन्ते। तदनु अष्टाविंशतिः दिनांके अनुसन्धेय कार्यं नामांकनपत्राणां भविष्यति। तावत् प्रत्याशिनः अस्य मासस्य त्रिंशत् दिनांके नामांकन प्रत्यावर्तनं कर्तुं शक्नुवन्ति। प्रथमचरणस्य मतदानं नवम्बर मासस्य त्रयोदश दिनांके, द्वितीय चरणस्य च विंशतिः दिनांके भविष्यति इति। तत्रैव मतगणना नवम्बर मासस्यैव त्रयोविंशतिः दिनांके निर्धारिता अस्ति। विदेश राज्यमंत्री पवित्रा मार्गेरिटा इत्येषः शनि रविवासरयोः इण्डोनेशिया देशं प्रति यास्यति। असौ तत्र रविवासरे जकार्तायां राष्ट्रपतेः प्रबोवो सुबियांटो इत्येतस्य, उपराष्ट्रपतेः जिब्रान राकाबुमिंग राका इत्येतस्यापि शपथग्रहण समारोहे सम्मिलितो भविष्यति। उभयोः देशयोः राजनैतिक सम्बन्धानां पञ्चसप्तति वर्षाणि अस्मिन् एव वर्षे सम्पूरितानि भवन्ति। तावत् इयं यात्रा महत्वपूर्णा अस्ति इति। केन्द्रीय प्रत्यक्ष कर मण्डलेन आयकर अधिनियमस्य अन्तर्गतं अपराधानां शमनाय संशोधित मार्गदर्शिकाः प्रसारिताः। एताः संशोधित मार्गदर्शिकाः अस्मिन् विषये विद्यमानाः सर्वविध मार्गदर्शिकाः अतिक्रम्य निर्गम दिनांकात् प्रलम्बितानां नूतनानां च आवेदनानां कृते प्रवर्तन्ते। मार्गदर्शिकाः विद्यमान बहुविध मार्गदर्शकानां जटिलतां न्यूनीकृत्य संयोजन प्रक्रियायाः सरलीकरणं कृत्वा संयोजन शुल्कं न्यूनीकृत्य च हितधारकेभ्यः साहाय्यं कुर्वन्ति। प्रमुखेषु सरलीकरणेषु अपराधानां वर्गीकरणस्य निर्मूलनम्, आवेदनपत्राणां कृते सन्दर्भेषु सीम्नः निष्कासनम्, दोषानां निवारणार्थ नूतनानाम् आवेदनपत्राणाम् अनुमतिः च अन्तर्भवन्ति। क्रिकेट प्रतिस्पर्धायां भारत न्यूजीलैंड देशयोर्मध्ये प्रथम निकषस्पर्धायाः तृतीयं दिनमद्य प्रातः बेंगलुरुनगरस्य एम चिन्नास्वामी क्रीडांगणे पुनः समारप्स्यते इति वार्ताः।